ओम नमो भगवते वासुदेवाय। अथैकविंशोऽध्यायः। विदुर उवाच, स्वायम्भुवस्य च मनोर्वंशः परमसम्मतः, कथ्यतां भगवन् यत्र मैथुने नैधिरे प्रजाः, प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै, यथा धर्मं जुगुपतुः सप्तद्वीपवतीं महीं, तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता, पत्नी प्रजापतेरुक्ता कर्दमस्य त्वया नघ, तस्यां स वै महायोगी युक्तायां योगलक्षणैः, ससर्जकतिधा वीर्यं तन्मे शुश्रूषवे वद, रुचिर्यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः, यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम्। मैत्रेय उवाच, प्रजा सृजेति भगवान् कर्दमो ब्रह्मणोदितः, सरस्वत्यां तपस्तेपे सहस्राणां समादश, ततः समाधियुक्तेन क्रियायोगेन कर्दमः सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुतम्। तावत्प्रसन्नो भगवान् पुष्कराक्षः कृते युगे, दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः, सतं विरजमर्काभं सितपद्मोत्पलस्रजं, स्निग्धनीलालकव्रातवक्त्राब्जं विरजोऽम्बरं, किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरं, श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मिते क्षणम्। विन्यस्तचरणाम्भोज मंसदेशे करुत्मतः, दृष्ट्वा खेवस्थितं वक्षः श्रियं कौस्तुभकन्धरम्, जातहर्षोपतन्मूर्ध्ना क्षितौ लब्धमनोरथः, गीर्भिस्त्वभ्यगृणात् प्रीतिस्वभावात्मा कृताञ्जलिः। ऋषिरुवाच, जुष्टं बताद्याखिलसत्त्वराशेः सांसिध्यमक्ष्णोस्तव दर्शनान्नः, यद्दर्शनं जन्मभिरीड्य सद्भिराशासते योगिनो रूढयोगाः, ये मायया ते हतमेधसस्त्वत्पादारविन्दं भवसिन्धुपोतम्, उपासते कामलवाय तेषां राशीशकामान् निरयेऽपि ये स्युः, तथा स चाहं परिवोढु कामः समानशीलां गृहमेदधेनुम्, उपेयिवान्मूलमशेषमूलं दुराशयः कामदुघाङ्गृपस्य, प्रजापतेस्ते वचसाधीशतन्त्या लोकः किलायं कामहतोऽनुबद्धः, अहं च लोकानुगतो वहामि बलिं च शुक्ला निमिषाय तुभ्यम्, लोकांश्च लोकानुगतान् पशूंश्च हित्वा श्रितास्ते चरणातपत्रम्, परस्परं त्वद्गुणवादसीधु पीयूषनिर्यापितदेहधर्माः, न ते जराक्षभ्रमिरायुरेषां त्रयोदशारं त्रिशतं षष्टिपर्व, षण्यम्यनन्तच्छदियत्रिणाभि करालस्रोतो जगदाच्छिद्यधावत्, एकस्वयंसं जगतसिशृक्षया द्वितीययात्मन्नधियोगमायया, सृजस्य दः पासि पुनर्ग्रसिष्यसे यथोर्णनाभिर्भगवन् सशक्तिभिः, नैतद्बताधीशपदं तवेप्सितं यन्मायया नस्तनुषे भूतसूक्ष्मम्, अनुग्रहायास्त्वपि यर्हि मायया लसत्तुलस्या तनुवा विलक्षितः, तं त्वानुभूत्यो परतक्रियार्थं स्वमायया वर्तितलोकतन्त्रम्, नमाम्यभीक्ष्णं नमनीयपाद सरोजमल्पीयसि कामवर्षम्। ऋषिरुवाच, इत्यव्यलीकं प्रणुतोऽब्जनाभस्तमापभासे वचसा मृतेन, सुपर्णपक्षोपरिरोचमानः प्रेमस्मितोद्वीक्षणविभ्रमद्भ्रूः। श्रीभगवानुवाच, विदित्वा तव चैत्यं मे पुरैव समयोजितत्, यदर्थमात्मनियमैस्त्वयैवाहं समर्चितः, न वै जातुमृषैव स्यात् प्रजाध्यक्षमदर्हणं भवद्विधेष्वतितरां मयि सङ्घृपितात्मनां, प्रजापतिसुतः सम्राण्मनुर्विख्यातमङ्गलः, ब्रह्मावर्तं योधिवसन् शास्ति सप्तार्णवां महीं, सचेह विप्रराजर्षिर्महिष्या शतरूपया, आयास्यति दिदृक्षुस्त्वां परस्वो धर्मकोविदः, आत्मजामसि तापाङ्गीं वयःशीलगुणान्वितां, मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो, समाहितं ते हृदयं यत्रेमान् परिवत्सरान्, सा त्वां ब्रह्मन् नृपवधू काममाशु भजिष्यति, यातात्मभृतं वीर्यं नवधा प्रसविष्यति, वीर्ये त्वदीये ऋषय आधास्यन्त्यञ्च सात्मनः, त्वं च सम्यगनुष्ठाय निदेशं मौषत्तमः, मैतीर्थी कृताशेषक्रियार्थो मां प्रपत्स्यसे, कृत्वा दयां च जीवेषु दत्त्वा च भयमात्मवान्, मय्यात्मानं सह जगद्द्रक्ष्यस्यात्मनि चापि मां, सहाहं स्वांशकलया त्वद्वीर्येण महामुने, तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम्। मैत्रेय उवाच, एवं तमनुभाष्याथ भगवान् प्रत्यगक्षजः, जगामबिन्दुसरसः सरस्वत्या परिश्रितात्, निरीक्षतस्तस्य ययावशेष सिद्धेश्वराभिष्टुत सिद्धमार्गः आकर्णयन् पत्र रथेन्द्रपक्षैरुच्चारितम् स्तोममुदीर्णसाम अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः आस्ते स्म बिन्दुसरसि तम् कालम् प्रतिपालयन् मनुष्यन्दनमास्थाय शातकौम्भपरिच्छदम् आरोप्य स्वाम् दुहितरम् सभार्यः पर्यटन्महीम् तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् उपायादाश्रमपदम् मुने शान्तव्रतस्य तत् यस्मिन् भगवतो नेत्रान्यपतन्नश्रुबिन्दवः कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् पुण्यम् शिवामृतजलम् महर्षिगणसेवितम् पुण्यद्रुमलताजालैः कूजत् पुण्यमृगद्विजैः सर्वर्तुफलपुष्पाढ्यम् वनराजिश्रियान्वितम् मत्तद्विजगणैर्घुष्टम् मत्तभ्रमरविभ्रमम् मत्तबर्हिनटाटोप महव्वयन्मत्तकोकिलम् कदम्बचम्पकाशोक करञ्जबकुलासनैः कुन्दमन्दारकुटजैश्चूतपोतैरलङ्कृतम् कारण्डवैप्लवैर्हंसैः कुर्रैर्जलकुक्कुटैः सारसैश्चक्रवाकैश्च चकोरैर्वल्गुकूजितम् तथैव हरिणैः क्रोडैः स्वाविद्गवयकुञ्जरैः गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिर्वृतम् प्रविश्य तत्तीर्थवरमादिराजः सहात्मजः तदर्श मुनिमासीनम् तस्मिन् हुतहुताशनम् विद्योतमानम् वपुषा तपस्युग्रयुजाचिरम् नातिक्षामम् भगवत स्निग्धापाङ्गावलोकनात् तद्व्यारिता मृतकला पीयूषश्रवणेन च प्रांशुम् पद्मपलाशाक्षम् जटिलम् चीरवाससम् उपसंश्रित्य मलिनम् यथार्हणमसंस्कृतम् अथोटजमुपायातम् नृदेवम् प्रणतम् पुरः सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया गृहीतार्हणमासीनम् संयतम् प्रीणयन्मुनिः स्मरन् भगवदादेशमित्याह स्लक्ष्णया गिरा नूनम् चङ्क्रमणम् देव सताम् संरक्षणाय ते वधाय चासताम् यस्त्वम् हरे शक्तिर्हि पालिनी योऽर्केन्द्वग्नीन्द्रवायूनाम् यमधर्मप्रचेतसाम् रूपाणि स्थानाधत्से तस्मै शुक्लाय ते नमः न यदा रथमास्थाय जैत्रम् मणिगणार्पितम् विस्फूर्जच्चण्डको दण्डो रथेनत्रासयन्नघान् स्वसैन्यचरणक्षुण्णम् वेपयन्मण्डलम् भुवः विकर्षन् बृहतीम् सेनाम् पर्यटस्यंशुमानिव तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः भगवद्रचिता राजन् भिद्येरन्वतदस्युभिः अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृपिः शयाने त्वयि लोकोऽयम् दस्युग्रस्तो विनङ्क्षति अथापि पृच्छे त्वाम् वीर यदर्थम् त्वमिहागतः तद्वयम् निर्व्यलीकेन प्रतिपद्यामहे हृदा ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे एकविंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।